इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी षोडशे ब्राजील रूस भारत चीन दक्षिणाफ्रिका देशानां ब्रिक्स इति शिखर सम्मेलने सहभागार्थम् अद्यारभ्य रूसदेशं प्रति प्रस्थास्यति। अत्रावधौ श्रीमोदी ब्रिक्स समूहस्य सदस्य देशैः नेतृभिस्साकं द्विपक्षीयोपवेशनानि समनुष्ठास्यति। विदेशमन्त्रालयेन कथितं यत् प्रधानमन्त्री श्रीमोदी रूसदेशस्य राष्ट्रपतेः व्लादिमीर पुतिन इत्यस्य निमन्त्रणे द्वाविंशतिः त्रयोविंशति दिनांकयोः रूसदेशस्य यात्रायां भविष्यति इति। कजाननगरे समायोक्ष्यमाणस्य अस्य शिखरसम्मेलनस्य विषयो वर्तते वैश्विकविकाससुरक्षयोः कृते बहुपक्षवादस्य सुदृढीकरणम् इति। नवदिल्ल्यां वार्ताहरान् संसूचयन् विदेशसचिवः विक्रम मिश्री इत्येषः प्रोक्तवान् यत् भारतं ब्रिक्स समूहस्य संस्थापक सदस्यो अपि विद्यते। ब्रिक्स समूहः वैश्विक समाह्वानानि समापयितुं महत्वपूर्ण मञ्चत्वेनापि कार्यं करोतीति। असौ अग्रे ख्यापितवान् यत् द्विदिवसात्मके अस्मिन् शिखर सम्मेलने आर्थिक सहयोगः खाद्योर्जा सुरक्षा स्वास्थ्यं सेवाः च संवर्धयिष्यन्ति। शिखर सम्मेलनावधौ श्रीमोदी केषुचित् द्विपक्षीयोपवेशनेषु भागं ग्रहीष्यति इत्यपि कथिता विदेश सचिवेन। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य पञ्चमं राष्ट्रिय जल पुरस्कारं प्रदास्यति। केन्द्रीय जलशक्ति मन्त्रालयेन सर्वश्रेष्ठ राज्यं सर्वश्रेष्ठ जनपदं सर्वश्रेष्ठ ग्राम पञ्चायतं सर्वश्रेष्ठ नगरीय स्थानीय संस्थां सर्वश्रेष्ठ जल उपयोक्तृ संघं सर्वश्रेष्ठ नागरिक समाजं च समेत्य नव श्रेणीषु अष्टात्रिंशत् विजेतारः घोषिताः। सर्वोत्तम राज्यस्य वर्गे ओडिशा राज्यं प्रथम पुरस्कारं उत्तरप्रदेश राज्यं द्वितीय पुरस्कारं गुजरात पुद्दुचेरी राज्ये संयुक्त रूपेण तृतीय स्थानस्य पुरस्कारं च प्राप्तवन्तः। प्रत्येकं पुरस्कार विजेता प्रशंसापत्रं पारितोषिकं तथा च कतिपयेषु वर्गेषु धनपुरस्कारान् प्राप्स्यति। भारत चीन देशौ पूर्वीय लद्दाख क्षेत्रे वास्तविक नियन्त्रण रेखायां रक्षाव्यवस्थाम् आधृत्य सहमतौ जातौ। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् विदेश सचिवः विक्रम मिश्री इत्येषः सूचितवान् यत् अनया सहमत्या द्वाविंशत्यधिक द्विसहस्रतम वर्षे जातां चिन्तां न्यूनीकर्तुं तस्याः च समाधानम् अन्वेष्टुं साहाय्यं मेलिष्यति। असौ अग्रे अवोचत् यत् उभयोः पक्षयोः मध्ये विस्तारपरायाः चर्चायाः अनन्तरं प्रहरीव्यवस्थायां सहमतिः जाता। विदेशमन्त्री डॉ एस जयशंकरः अस्याः सहमत्याः प्रशंसां कृतवान्। उक्तवान् च यत् उभौ देशौ विंशत्यधिक द्विसहस्रतमवर्षस्य स्थितिं पुनरावर्तितवन्तौ। गुरुशुक्रवासरयोः अर्धरात्रौ पुरी सागर द्वीपयोर्मध्ये भीषणातिभीषणं दाना इति चक्रवातः वर्धमानो भविष्यति इति सम्भाव्यते। चक्रवातावधौ वायुगतिः विंशत्यधिकैकशत किलोमीटर मितां प्रतिहोरा भविष्यति। भारत ऋतुविज्ञान विभागेन ख्यापितं यत् बंगालखातेः मध्ये निर्मितं अल्पभारयुतं क्षेत्रं पश्चिमोत्तर पश्चिमीय भागं प्रति संवर्धयिष्यति। अनेन विभागेन बुधवासरतः शुक्रवासरं यावत् ओडिशा राज्यस्य विविधेषु तटीय जनपदेषु निम्नवर्तीषु क्षेत्रेषु च अत्यधिक वृष्टेः भविष्यवाणी कृता। धीवरेभ्यः च प्रत्यागमनाय आदेशः दत्तः। तत्रैव राजधान्यां भुवनेश्वरे चतुर्विंशति होरां यावत् नियन्त्रणकक्षाः स्थापिताः। पुरुषाणां विंशतिः प्रतिविंशति एमर्जिंग इति उदीयमान एशिया चषक क्रिकेट प्रतिस्पर्धायां अवर्गस्य भारतेन ह्यः अल अमरात इत्यत्र संयुक्त अरब अमीरातः सप्तस्तोभैः पराजितः इति वार्ताः।